य इन्द्राग्ने चित्रतमोरथो वामभिविश्वानि भुवनानि चष्टे तेनायातम् सरथम् तस्थिवाम् साधा सोमस्य पिबतम् सुतस्य यावदिदम् भुवनम् विश्वमस्तुरव्यचावरिमता गभीरम् तावाङ्कजम् पात वे सोमो अस्त्वरमिन्द्राग्ने मनसे जुवभ्याम् चक्राथेः सध्रिया अङ्नाम भद्रम् सध्रे चेनावृत्रहणा उतस्थाः ताविन्द्राग्ने सध्र्यम् च निषद्या वृष्णः सोमस्य वृषणा वृषेथा सविद्धेष्वग्निष्वा न जाना जतसृचा बर्हिरुतिस्थिराणा तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्ने सोमनसा जजातम् यानि इन्द्राग्ने चक्रथुर्वीर्याणि जानि रूपाण्युतवृष्ण्यानि यावाम् रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतम् सुतस्य यदब्रवम् प्रथमम् वा मृणानो ओजम् सोमो असुरैर्नो विहव्याः ताम् सत्याम् श्रद्धामभ्याहि यातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्नेमदथ स्वेदुरोणे यद्ब्रह्मणि राजनिवाजत्र अतः परिवृषणा वाहि जातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्ने यदुषु दुर्वशेषु यद्रुह्युष्वनुषु पोरुषु स्थः अतः परिवृषणा वाहि जातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्ने अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्यामुतस्थः अतः परिवृषणा वाहि जातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्ने परमस्याम् पृथिव्याम् मध्यमस्यामवमस्यामुतस्थः अतः परिवृषणा वाहि जातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्ने दिविष्ठो यत्पृथिव्याम् यत्पर्वतेष्वोषधेष्वप्सो अतः परिवृषणा वाहि जातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्ने उदिता सूर्यस्य मध्ये दिवस्वधजा मादजेथे अतः परिवृषणा वाहि जातमथा सोमस्य पिबतम् सुतस्य एवेन्द्राग्नेपपिबांसा सुतस्य विश्वास्मभ्यम् सञ्जयतन्धनानि तन्ना मित्रो वरुणो मामहन्तामदितः सिन्धः पृथिवी उत द्यौः